एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेपाली कांग्रेस नेकपा माओवादी केन्द्राभ्याम सहितानाम् अष्टानाम् दलानाम् उपवेशेन राष्ट्रपतेर निर्वाचनम् लक्ष्यीकृत्य कार्यदलम् संगठितम् वर्तते। बाल्वाटारा वर्तिनी प्रधानमन्त्री निवासे गतसायम् उपवेशेन कांग्रेस दलस्य उपसभापतेः पूर्णबहादुर खड्गाविदस्य नेतृत्वे कार्यदलमिदम् संगठितम् वर्तते। कार्यदले माओवादी केन्द्रस्य महासचिव देव गुरूङ, एकीकृत समाजवादी दलस्य महासचिव बेदुराम भूषाला, जनता समाजवादी दलस्य वरिष्ठ नेता राजेन्द्र श्रेष्ठ, जनमत दलस्य नेता अब्दुल खाँ, लोकतान्त्रिक समाजवादी दलस्य शरद सिंह भण्डारी, नागरिकोन मुक्ति दलस्य अध्यक्ष रंजिता श्रेष्ठ चौधरी, राष्ट्रिय जनमोर्चा दलस्य चित्रबहादुर केसी च सन्ति। कार्यदलस्य सदस्यैः राष्ट्रपतेर निर्वाचने स्वस्व दलस्य दायित्वं बोढव्यं भवति। उपवेशेन अस्यैव फाल्गुनस्य त्रयोविंशं दिवसं यावत् गठबन्धने आबद्धानां सर्वेषां दलानां सर्वान् सांसदान् काष्ठमण्डपम् आगन्तुम् निर्देष्टुमपि निर्णीतमिति जनता समाजवादी दलस्य वरिष्ठ नेता राजेन्द्र श्रेष्ठः अज्ञापयत्। एवमेव उपवेशेन फाल्गुनस्य अष्टादश दिवसे संघीय सांसदेभ्य अभिमुखीकरणं प्रदातुम् ऊनविंशे दिवसे सप्तसु एव प्रदेशेषु निर्वाचनलक्षित कार्यक्रमं विधातुं च निर्णीतं वर्तते। सर्वाणि दलानि राष्ट्रपते निर्वाचने नेपाली कांग्रेस दलस्य प्रत्याशिने रामचन्द्र पौडेलाय सहयोक्तुम् आह्वातुमपि उपवेशेन निर्णीतमस्ति। नेपाली कांग्रेस, माओवादी केन्द्र, जनता समाजवादी, एकीकृत समाजवादी, लोकतान्त्रिक समाजवादी, जनमत, नागरिकोन्मुक्ति, राष्ट्रिय जनमोर्चा दलानाम् शीर्ष नेतृणाम् तदीयोपवेशे उपराष्ट्रपतेर निर्वाचनस्य पश्चात्तन समये विकसितस्य राजनीतिक घटनाक्रमस्य सत्तायां सहभागितायाश्च विषयेष्वपि विमृष्टम् आसीत्। उपवेशे प्रधानमन्त्री, माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड, महासचिव देव गुरूङ, कांग्रेस दलस्य सभापति शेरबहादुर देउवा, वरिष्ठ नेता रामचन्द्र पौडेल, उपसभापति पूर्णबहादुर खड्का, जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादव, नेकपा एकीकृत समाजवादी दलस्य नेता घनश्याम भूषाल, लोकतान्त्रिक समाजवादी दलस्य अध्यक्ष महन्त ठाकुर, नारीकोन मुक्ति दलस्य अध्यक्ष रंजिता श्रेष्ठ, नेत्री एलिजा गौतमश्च सहभागिनः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड, राष्ट्रपतेर निर्वाचने सर्वसम्मतिः उचिता भवतीति विचारं व्यनक्ति। गोर्खा जनपदस्य बारपाक सुलिकोट ग्रामपालिकायां ह्य आयोजितं बारपाक सुलिकोट रनिङ शील्ड क्रीडा प्रतियोगिता समापनस्य हुतात्मनां विलोपितानां च व्यक्तिनां परिवाराणां सम्मानस्य च कार्यक्रमं सम्बोधयन् प्रधानमन्त्री दाहाल राष्ट्रपतये सर्वसम्मतौ सत्यम् उचिता भवतीति धारणां व्यक्तवान्। असौ राष्ट्रपतेः सर्वसम्मत्या निर्वाचनस्य परिस्थितेः निर्माणाय अष्टौ दलानि एकत्र स्थितानि सन्ति, एमाले प्रवृत्तिभिः दलै सहापि विमर्शनं सञ्चलदस्तीति अज्ञापयत्। प्रधानमन्त्री प्रचण्ड स्वस्य जीवनस्य अवशिष्ट कार्यकाल सुशासनाय विकासाय च समर्पितेन भविष्यतीति प्रतिबद्धतां व्यक्तवान्। ह्य एव बाल्वाटारा वर्तिनी प्रधानमन्त्री निवासे जनयुद्धस्य हुतात्मनां विलोपित योद्धृणां च परिवारैः सम्पन्ने अन्तर्क्रिया कार्यक्रमे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड जनयुद्धस्य हुतात्मन राष्ट्रिय हुतात्मन उद्घोषयिष्यन्ते इति असूचयत्। प्रधानमन्त्री प्रचण्ड नेपालस्य राजनीतिक परिवर्तने विहित योगदानानां हुतात्मनां उच्च सम्मानेन सह राष्ट्रिय हुतात्म घोषणायै पूर्व कार्यं विधीयमानमस्तीति अबोधयत्। प्रधानमन्त्री प्रचण्ड सत्यनिरूपण मेला योग सम्बद्धं विधेयकम् अन्तिम चरणे प्राप्तमस्तीति ज्ञापयन् शान्ति प्रक्रियायाः अवशिष्ट कार्याणि शीघ्रमेव सम्पत्स्यन्ते इति प्रत्यपादयत्। असौ जनयुद्धस्य हुतात्मनां सम्मानः तेषां सन्ततीनां शिक्षा दीक्षायाः कार्यञ्च विधिं निर्माय करिष्येते इति च अवोचत। राष्ट्रिय प्रजातन्त्र दलस्य पक्षतः सर्वकार्य सहभागिभिः मन्त्रिभिः त्यागपत्र प्रदानस्य अनन्तरं रिक्तानां मन्त्रालयानां कार्यभार प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन निरूह्यते। राष्ट्रपतिना विद्यादेवी भण्डारिण प्रधानमन्त्रिण परामर्शेन त्रयाणाम मन्त्रालयानाम कार्यभार प्रधानमन्त्रिण एव निर्वहणत्वेन ह्यो निर्धारित इति राष्ट्रपतेः कार्यालयस्य प्रवक्ता सागराचार्यः ज्ञापयति। राप्रपा दलस्य पक्षतः सर्वकारी सहभागिभिः मन्त्रिभिः प्रधानमन्त्रिणः प्रचण्डस्य समक्षम् शनिवासरे त्यागपत्रम् दत्तम् आसीत्। प्रथम प्रदेश सर्वकारात् राष्ट्रिय प्रजातन्त्र दलम् तत्कालम् वैरी न भवति। राष्ट्रपतेः निर्वाचनम् विषयीकृत्य केन्द्रीय राजनीतौ सृष्टस्य परिवर्तनस्य कारणेन राप्रपा दलेन परह्यः संघस्य प्रदेशानाम् च सर्वेभ्यः सर्वकारेभ्यो वैर्भवितुम् समर्थनम् प्रत्यावर्तयितुम् च निर्णीतम् आसीत्। प्रथम प्रदेश सभायाम् राप्रपा दलस्य 60 सदस्याः सन्ति। राप्रपा दलेन नेकपा एमाले दलेन सह सहकार्यम् सततम् चलतीति ज्ञापितम् वर्तते। अधिकार दुरूपयोगानुसन्धानायोगेन गण्डकी प्रदेशस्य भौतिक पूर्वाधार नगरीय विकास यातायात मन्त्रालयस्य तात्कालिक सचिवस्य ईश्वर चन्द्र मरहट्टा इत्यस्य विरूद्धे पञ्चकोटिभ्यः पञ्चचत्वारिंशतोलक्षेभ्यश्च रूप्यकेभ्यः अपि अधिकम् वित्तम् भ्रष्टाचरितम् इत्यारोपे काष्ठमण्डपवर्तिनी विशेष न्यायालये न्यायिक प्रकरणम् पञ्जीकारितम् वर्तते। आयोगेन गोरखा नगरपालिकायाः तृतीयवडा क्षेत्रस्य जरेवर स्थाने दरोदी नद्याम् तत्कालम् मार्गस्य अभावस्थले सेतोः प्रस्तावम् कृत्वा एतावद् वित्तम् भ्रष्टाचरितमित्यारोप्य न्यायिक प्रकरणम् पञ्जीकारितमिति आयोगस्य प्रवक्त्रा श्यामप्रसाद भण्डारिणा ह्यः प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। नेकपा एमाले दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च केपी शर्मा ओली आगामिनि राष्ट्रपतेः निर्वाचने स्वस्य दलस्य प्रत्याशिनम् सहयोक्तुम् आह्वयति। हुतात्म परिवाराणाम् विभिन्न राजनीतिकान्दोलनानाम् क्रमे आहतानाम् जनानाम् च सम्मानाय ह्य आयोजिते कार्यक्रमे अध्यक्ष ओली हुतात्मनाम् विलोपितानाम् आहतानाम् जनानाम् परिवारेभ्य राज्येन सहयोगो विधातव्य इति बलम् प्रादात्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सर्वकारीय तथ्याङ्कानाम् सुरक्षा व्यवस्थापनयो कृते सर्वेषु स्थानीय स्तरेषु एकलाम् सफ्टवेयर सुसांख्यान्तर प्रणालीम् क्रियान्वेतुम् पूर्वकार्यम् विहितम् वर्तते। संचार सूचना प्रविधि मन्त्रालय काष्ठमण्डप महानगरपालिकायाः प्रमुखेण बालेन साहेन सह ह्य सम्पन्ने मेलने संचार सूचना प्रविधि मन्त्री शर्मा संकटकालिकावस्थायाम् संचार सेवायाः निरन्तरम् सञ्चालनार्थम् अधिनियमे एव व्यवस्थापनाय सर्वकारः पूर्वकार्यम् कुर्वन्नस्तीति अज्ञापयत्। असौ संचार सेवायाः अवरोधनस्य अवस्थायाम् तस्य पूर्वसूचना प्रदायित्री व्यवस्था विद्यमानास्तीति असूचयत्। मिलने काष्ठमण्डप महानगरपालिकायाः प्रमुखः बालेन शाह सामाजिक सञ्जालानाम् पञ्जीकरणपूर्वकम् सञ्चालनस्य व्यवस्थायै संचार मन्त्रिणम् अन्वरुणत्। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे वैशाख मासस्य 10 दिवसे सम्पत्स्यमानस्य उपनिर्वाचनस्य पूर्वकार्येण सहितेषु विविध विषयेषु विमर्शनाय राष्ट्रिय स्वतन्त्र दलेन अद्य केन्द्रीय समितेः उपवेशः आकारितो वर्तते। दलस्य वसुन्धरा वर्तिनी केन्द्रीय कार्यालये उपविश्यमाने एतस्मिन् उपवेशे परिवर्तितस्य राजनीतिक समीकरणस्य राष्ट्रपतेर निर्वाचनस्य चितवनस्य द्वितीय क्षेत्रस्य उपनिर्वाचनस्य च विषयाः विमृश्यन्ते इति राष्ट्रिय स्वतन्त्र दलस्य उपाध्यक्ष डोलप्रसाद अरियालः अज्ञापयत्। नेपाल बार एसोसिएशन संघस्य 48 केन्द्रीय कार्यकारिणी परिषद उपवेशः 23 घोषणापत्रम् पारितीकृत्य ह्य सम्पन्नो वर्तते। घोषणापत्रे प्रधान न्यायाधीशस्य नियुक्तये तत्कालम् प्रक्रियामग्रे वर्धयितुम् सर्वोच्च न्यायालय उच्च न्यायालये सूच न्यायाधीशानाम् मुख्य न्यायाधीशानाम् च नियुक्तये सम्बद्ध निकायस्य ध्यानाकर्षणम् कारितमस्ति। घोषणापत्रे संविधानेन विधिना च प्रदत्तान् क्षेत्राधिकारान् न्यायिक मर्यादाम् च विस्मृत्य कार्यरत न्यायाधीशैश्च सहितेन न्यायाधीश समाजेन संस्थागत रूपेण न्यायाधीशाः अपि राष्ट्रपति पदाय उपराष्ट्रपति पदाय च प्रत्याशिनो भवितुम् शक्नुवन्तीति अभिव्यक्त्या सहिताम् न्यायाधीश समाजेन सम्प्रत्येव प्रकाशिताम् विज्ञप्तिम् प्रति गभीरापत्तिः व्यक्तेति उल्लिखितम् वर्तते। इति समाचाराः।